एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली स्पेन देशे सम्पन्ने विकासाय वित्त सम्बद्धे चतुर्थे अन्तर्राष्ट्रिय सम्मेलने सहभागी भूत्वा ह्य स्वदेशम् प्रत्यागतो वर्तते। प्रत्यागमनावसरे प्रधानमन्त्रिणः ओलिनः त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य अतिविशिष्ट कक्षे उपप्रधानमन्त्री प्रकाश मान सिंह, संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डे, विभिन्नाः उच्चपदस्थाधिकारिणश्च स्वागतम् विहितवन्तः। तदवसरे प्रधानमन्त्रिणे ओलिने नेपाली सेनायाः समूहेन सम्मानार्पणम् विहितम् आसीत्। स्वागतस्य पश्चात् आयोजिते पत्रकार सम्मेलने नेपाली प्रतिनिधिमण्डलस्य पक्षतः सम्मेलने सहभागी परराष्ट्र मन्त्रालयस्य सचिवः अमृत बहादुर राई, विकासस्य कृते वित्त सम्बद्धे चतुर्थे अन्तर्राष्ट्रिय सम्मेलने नेपालस्य सहभागितया नेपालस्य समृद्धियात्रायां विभिन्न राष्ट्राणां ध्यानाकर्षणं कारयितुं सफलता अधिगतास्तीति प्रावोचत। भ्रमणस्य क्रमे प्रधानमन्त्रिणा ओलिना विभिन्न राष्ट्रप्रमुखै सह मेलवार्ता विहितासीत्। अनेन भ्रमणेन नेपालस्य वैदेशिकम् सम्बन्धम् अतिरिक्तम् सुदृढम् विधाय नेपाले यूरोपीय राष्ट्राणाम् पर्यटकानाम् आकर्षणाय योगदानम् प्रापितम् अस्ति इति दृष्टम् वर्तते इति च परराष्ट्र सचिवः राई अवोचत। एकविंशति सदस्यीय नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विदधानः प्रधानमन्त्री ओली अस्यैव आषाढस्य चतुर्दशे दिवसे शनिवासरे स्पेनदेशं प्रस्थितः आसीत्। राष्ट्रियसभाया ह्यस्तनोपवेशेन आयव्ययकस्य क्रियान्वयनेन सम्बद्धे एतद् विक्रमवर्षीये आर्थिक विधेयकम् राष्ट्र ऋणोत्थापन विधेयकम् च पारितीकृते स्तः। उपवेशे उपप्रधानार्थमन्त्रिणा विष्णु प्रसाद पौडेलेन प्रस्तुते प्रतिनिधिसभातः ससन्देशम् प्राप्ते एतद् विक्रमवर्षीये आर्थिक विधेयकम् राष्ट्र ऋणोत्थापन विधेयकम् च बहुमतेन पारितीकृते स्तः। विधेयकस्य विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री विष्णुप्रसाद पौडेलः स्रोतसः सामर्थ्यस्य च अनुसारेण आयव्ययकम् सन्तुलितरूपेण आनीतमस्तीति स्पष्टीकृतवान्। तत्पूर्वम् उपवेशस्य प्रारम्भे सांसदैः कृषकेभ्यः सहजरूपेण कृषिमलस्य प्रदानस्य व्यवस्था विधेया वर्षायामः प्रारब्धोऽस्तीत्यतः सम्भावित विपदः व्यवस्थापनाय सर्वकारेण विहितानि पूर्वकार्याणि सदनम् ज्ञापनीयानि, जलविप्लव भूस्खलनैः अवरुद्धान् मार्गान् तत्कालम् सुचारू सञ्चालयितुम् सम्बद्ध निकायैः सक्रियता प्रदर्शनीया चेति विषयेषु सर्वकारस्य ध्यानम् आकर्षितम् आसीत्। राष्ट्रियसभायाः अपरोपवेशः अस्यैव आषाढस्य चतुर्विंशे दिवसे मंगलवासरे दिवा सपादैकवादने वस्ता। उपप्रधानार्थमन्त्रिणा विष्णुप्रसाद पौडेलेन कोषागाराणाम् वित्तीय संस्थानाम् च व्यवस्थितकरणाय समयानुकूल सम्पादनाय च विधेयकमानीतमस्तीत्यतः अधिनियमस्य आनयनस्य पश्चात् कोषागारीय वित्तीय संस्था सम्बद्ध समस्याः समाधास्यन्ते इति स्पष्टीकृतम् वर्तते। प्रतिनिधिसभायाः अन्तर्गतायाः अर्थसमितेः ह्यस्तनोपवेशे कोषागार सम्बद्धे वित्तीयसम्बद्धे च विधेयके संशोधनकर्तृभिः सदस्यैः सह विमर्शनस्य पश्चात् अर्थमन्त्री पौडेलः विधेयकमेतत् यथाशीघ्रम् निष्कर्षम् प्रापयितुम् अन्वरुणात्। सांसदानाम् प्रश्नस्य उत्तरे अर्थमन्त्री पौडेलः भारतात् नेपालम् आगतैः जनैः पञ्चसहस्राणाम् अमेरिकादेशीय डलर मुद्रायाः समानी रूप्यकाणि आनेतुम् शक्यन्ते इति व्यवस्था विहितास्तीति विषयम् ज्ञापयन् अतिरिक्तम् वित्तम् आनेयम् अस्ति चेत् सीमा प्रवेश शुल्क कार्यालये सूचयित्वा आनेतुम् शक्यन्ते इति अवोचत। तदवसरे अर्थमन्त्री पौडेलः पञ्चशतस्य सहस्रस्य च भारतीय मुद्रापत्राणाम् नेपाले आनयनानन्तरम् पश्चात् भारतेन तानि मुद्रापत्राणि न ग्रहीष्यन्ते इत्यतः पञ्चशतात् न्यूनरूप्यकाणाम् मुद्रापत्राणि एव नेपालम् आनेतुम् शक्यन्ते इति अगदत्। प्रतिनिधिसभायाः सांसदैः नेपालस्य उड्डयन सेवाम् व्यवस्थिताम् सुरक्षिताम् च सञ्चालयितुम् नियमनकारिणा पृथक् पृथक् निकायद्वयेन भाव्यमिति बलम् दत्तमस्ति। संसद अन्तर्राष्ट्रिय सम्बन्ध पर्यटन समिते ह्यस्तनोपवेशे भीम प्रसाद आचार्य सुदन किराँती प्रभु शाह हितबहादुर तामाङ शिशिर खनालश्चेति सांसद उड्डयन सेवाया सुरक्षायां ध्यान प्रदानेन विना विमानस्थलानां निर्माणं प्रत्येव सर्वकारेण अधिक ध्यान प्रदानस्य कारणेन दुर्घटना वर्धिता सन्तीति उक्त्वा पृथक नियामक निकायाय उड्डयन सेवाया सुरक्षाया दायित्वस्य प्रदानत्वेन विधिगत व्यवस्था विधातव्येति बलं दत्तवन्तः। राष्ट्रपति रामचन्द्र पौडेल निगदति नेपाली कांग्रेस दलस्य नेता पूर्व प्रधानमन्त्री च स्वर्गीय गिरिजा प्रसाद कोइराला क्रान्ते शान्तेश्च नेता वर्तते। नेता आसीत दिवंगत नेतु गिरिजा प्रसाद कोइराला विधस्य द्युत्तर शततम्यः जन्मजयन्त्याः अवसरे ह्य काष्ठमण्डपे आयोजितं कार्यक्रमं सम्बोधयन् राष्ट्रपतिः पौडेलः राजनीतेः दिशः परिवर्तनस्य सामर्थ्यवता स्वर्गीयेण नेत्रा कोइराला विदेन लोकतान्त्रिकान्दोलनस्य नेतृत्वस्य शान्तिप्रक्रियायाः अग्रेवर्धनस्य गणतन्त्र स्थापनस्य च कार्येषु नेतृत्वं विहितम् आसीदिति अस्मरत। नेकपा एमाले दलेन दलस्य आगामिनि विधानाधिवेशने प्रस्तुष्यमाणस्य संघटनात्मक प्रतिवेदनस्य सन्दर्भे आवश्यक परामर्शेन सहितं प्रतिवेदनं प्रेषयितुं अन्तर्गताः निकायाः निर्दिष्टाः वर्तन्ते। एमाले दल प्रचार विभाग प्रमुख राजेन्द्र गौतम विधान महाधिवेशने प्रस्तुष्यमाणस्य संघटनात्मक प्रतिवेदनस्य सन्दर्भे लिखित परामर्शनेन सहितं प्रतिवेदनं प्रेषयितुं प्रदेश जनपद समितयः निर्दिष्टाः सन्तीति असूचयत। नेकपा एमाले दलस्य द्वितीयं विधान महाधिवेशनम् आगामिनः भाद्रमासस्य विंशात् दिवसात् द्वाविंशं दिवसं यावत् ललितपुरस्य गोदावरी स्थाने आयोजयितुं निश्चितं वर्तते। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ कथयति संघीयता समानुपातिक समावेशी प्रणाली च निरुत्साहिते सत्यौ जनता अन्याय पतिष्यति। ललितपुरस्य गोदावरी स्थाने ह्य आयोजितं लोकतान्त्रिक आदिवासी जनजाति महासंघस्य केन्द्रीय पदाधिकारिणां सचिवालयस्य च विस्तारितम् उपवेशं सम्बोधयन् संचार मन्त्री गुरूङ एवम् अवोचत।